इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः झाः। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य गुजरातस्य गांधीनगरे महात्मा मन्दिरे 37,500,000,000,000 रूप्यकाणां विकासात्मक परियोजनानां उद्घाटनं शिलान्यासं च विधास्यति। असौ गुजरात नगर विकासस्य 50वें वार्षिकोत्सवे भागं गृह्णीयात्। कार्यक्रमोऽयं 75,000,000 तम वर्षस्य नगरीय विकास वर्षस्य आरम्भस्य दशकद्वयानां समाप्तिं सूचयति। अस्य उद्देश्यं योजनाबद्ध आधारभूत संरचना, उत्तम प्रशासनं, नगरीय निवासिनां कृते उत्तम जीवनस्तरस्य निर्माणं च वर्तते। एतद् सर्वमपि सुनिश्चेतुं प्रधानमन्त्री गुजराते नगर प्रगतये अपूर्व रूपरेखायाः शुभारम्भं कुर्यात्। अनेन 25,000,000,000 तम वर्षस्य विकास वर्षस्य शुभारम्भो भविता। श्रीमोदी नगर विकास स्वास्थ्य जलापूर्ति सम्बद्धानां कतिपय परियोजनानामपि उद्घाटनं करिष्यति, शिलान्यासं च स्थापयिष्यति। असौ प्रधानमन्त्री आवास योजनायाः अन्तर्गतं 22,000,000 लाभार्थिभ्यः आवासं च समर्पयेत्। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य राष्ट्रपतिः भवने द्वितीय नागरिक अलंकरण समारोहे पद्म पुरस्कारं प्रदास्यति। अवधेयास्पदं वर्तते यत् देशस्य सर्वोच्च नागरिक पुरस्कारेषु एकं पद्म पुरस्कारं त्रिषु स्तरेषु प्रदीयते। प्रथमः तावत् पद्म विभूषण पुरस्कारः, द्वितीयः पद्म भूषण पुरस्कारः, तृतीयः पद्मश्री पुरस्कारः वर्तते। पुरस्कारोऽयं कला सामाजिक कार्य विज्ञान व्यापार उद्योग चिकित्सा साहित्य शिक्षा क्रीडा इत्यादिषु क्षेत्रेषु प्रदीयते। प्रधानमन्त्री नरेन्द्रमोदी ह्यः उक्तवान् यत् 1.4 अरब भारतीयाः एकीभूताः सन्ति, विकसित भारतस्य निर्माणे अथक कार्यं कुर्वन्ति। आत्मनिर्भरतायाः उपरि बलं प्रददता श्रीमोदिना उक्तं यत् भारतं विकसित राष्ट्रं कर्तुं यत्किमपि आवश्यकं तत्सर्वं देशे एव निर्मितं भवेत् इति आवश्यकमस्ति। गुजरातस्य दाहोदनगरे प्रायः 24,000,000,000 रूप्यकाणां बहुविध विकासात्मक परियोजनानाम् आधारशिला स्थापनम् उद्घाटनं च कृत्वा श्रीमोदिना इदम् उक्तम्।
आज देश निराशा के अंधकार से निकलकर विश्वास के उजाले में तिरंगा फहरा रहा है। साथियों, आज हम 140 करोड़ भारतीय मिलकर अपने देश को विकसित भारत बनाने के लिए जी जान से जुटे हैं। देश की तरक्की के लिए जो कुछ भी चाहिए वो हम भारत में ही बनाएं, ये आज के समय की मांग है।
आंतरिक निर्माणस्य वृद्धिम् उद्धृत्य सः उक्तवान् यत् भारते निर्मिताः रेल मार्ग घटकाः अधुना इंग्लैंड, फ्रांस, मैक्सिको, जर्मनी इत्यादिषु देशेषु निर्यातिताः भवन्ति। सः सूक्ष्म लघु मध्यमोद्यम संस्थानां यूनां च प्रशंसाम् अकरोत् यत्ते वृद्धिम् अग्रे सारयन्ति। सिन्दूराभियानस्य विषये प्रवदन् प्रधानमन्त्री मोदी अवदत् यत् एतत् न केवलं सैन्यकार्यम् आसीत् अपि तु भारतीय मूल्यानां भावनानां च अभिव्यक्तिः वर्तते। श्रीमोदिना राज्य सर्वकारस्य रेलादि क्षेत्र सम्बद्धाः विविधाः विकासात्मक परियोजनाः अपि प्रारब्धाः। एतेषु वेरावल अहमदाबादयोः मध्ये वन्दे भारत एक्सप्रेस रेलयानानि, वालसाड दहोड स्थानकयोः मध्ये एक्सप्रेस रेलयानानि च सन्ति। प्रधानमन्त्रित्वेन शपथ ग्रहणस्य 11 वर्षाणि पूर्णानि कृत्वा श्रीमोदी गुजरातेन राष्ट्रेण च तस्य उपरि स्थापितस्य विश्वासस्य स्मरणं कृतवान्। ततः पूर्वं प्रधानमन्त्री मोदी दाहोदनगरे भारतीय रेलवे इत्यस्य निर्माण संयन्त्रस्य उद्घाटनं कृतवान्। इति वार्ताः।